ओम नमो भगवते वासुदेवाय। अथ द्वादशोऽध्यायः। नारद उवाच, ब्रह्मचारी गुरुकुले वसन्तान्तो गुरोर्हितम्। आचरन् दासवन्नीचो गुरौ सुदृढसौहृदः। सायं प्रातरुपासीत गुरुवग्न्यर्कसुरोत्तमान्। उभे सन्ध्ये च यतवाग्जपन् ब्रह्म समाहितः। छन्दांस्य धीयीत गुरो राहुतश्चेत् सुयन्त्रितः। उपक्रमे वसाने च चरणौ शिरसा नमेत्। मेखलाजिनवासांसि जटा दण्डकमण्डलून्। बिभ्रियादुपवीतं च दर्भपाणिर्यथोदितम्। सायं प्रातश्चरेत् भैक्ष्यं गुरवे तन्निवेदयेत्। भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत् क्वचित्। सुशीलोमितभुग्दक्षः श्रद्धधानो जितेन्द्रियः। यावदर्थं व्यवहरे स्त्रीषु स्त्रीनिर्जितेषु च। वर्जयेत् प्रमदागाथामगृहस्थो बृहद्व्रतः। इन्द्रियाणि प्रमाथीनि हरन्त्यपियतेर्मनः। केशप्रसाधनोन्मर्दस्नपनाभ्यञ्जनादिकम्। गुरुस्त्रीभिर्युवतिभिः कारयेन्नात्मनो युवा। नन्वग्निः प्रमदा नाम कृतकुम्भसमः पुमान्। सुतामपि रहो जय्यादन्यता यावदर्थकृत्। कल्पयित्वात्मना यावदाभासमिदमीश्वरः। द्वैतं तावन्न विरमेत् ततो यस्य विपर्ययः। एतत्सर्वं गृहस्थस्य समाम्नातं यतेरपि। गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिनः। अञ्जनाभ्यञ्जनोन्मर्दस्त्र्यवलेखामिषं मधु। स्रग्गन्धलेपालङ्कारांश्च चे युर्ये धृतव्रताः। उषित्वैवं गुरुकुले द्विजोधीत्यावबुध्य च। त्रयीं साङ्गोपनिषदं यावदर्थं यथा बलम्। दत्त्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः। गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत्। अग्नौ गुरावात्मनि च सर्वभूतेष्वधोत्सजम्। भूतैः स्वधामपि पश्येदप्रविष्टं प्रविष्टवत्। एवंविधो ब्रह्मचारी वानप्रस्थो यतिर्गृही। चरन्विदितविज्ञानः परं ब्रह्माधिगच्छति। वानप्रस्थस्य वक्ष्यामि नियमान् मुनिसम्मतान्। यानातिष्ठन् मुनिर्गच्छेदृशिलोकमिहाञ्जसा। न कृष्टपत्यमश्नीयादकृष्टं चाप्यकालतः। अग्निपक्वमथामं वा अर्कपक्वमुताहरेत्। वन्यैश्चरुपुरोदासान् निर्वपेत्कालचोदितान्। लब्धे नवे नवेन्नाद्ये पुराणं तु परित्यजेत्। अग्न्यर्थमेव शरणमुटचं वाद्रिकन्दरां। श्रयेत हिमवायुवग्नि वर्षार्का तपसात् स्वयं। केशरोमनखस्मश्रुमलानि जटिलो दधत्। कमण्डल्वजिने दण्डवल्कलाग्निपरिच्छदान्। चरेद्वने द्वादशाब्दानष्टौ वा चतुरो मुनिः। द्वावेकं वा यथा बुद्धिर्न विपद्येत कृच्छतः। यदा कल्पः स्वक्रियायां व्याधिभिर्जरयाथवा आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम्। आत्मन्यग्नीन् समारोप्य सन्न्यस्याहं ममात्मताम्। कारणेषु न्यसेत् सम्यक् सङ्घातं तु यथार्हतः। खेखानि वायौ निःश्वासान् तेजस्यूष्माणमात्मवान्। अप्स्वसृक्श्लेष्मपूयानि क्षितौ शेषं यथोद्भवम्। वाचमग्नौ सवक्तव्यामिन्द्रे शिल्पं करावपि। पदानि गत्या वयसि रत्योपस्थं प्रजापतौ। मृत्यौपायुं विसर्गं च यथास्थानं विनिर्दिशेत्। दिक्षु श्रोत्रं सनादेन स्पर्शमध्यात्मनित्वचम्। रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत्। अप्सु प्रचेतसा जिह्वां घ्रैर्घ्राणं क्षितौ न्यसेत्। मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैकवौ परे। कर्माण्यध्यात्मना रुद्रे यदहं ममता क्रिया। सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे। अप्सु क्षितिमपो ज्योतिष्यदो वायौ नभस्य मुं। कूटस्थे तच्च महति तदव्यक्ते क्षरे च तत्। इत्यक्षरतयात्मानं चिन्मात्रमवशेषितम्। ज्ञात्वा द्वयोऽथ विरमेत् दग्धयो निरिवानलः। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम द्वादशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां। यथा त्वच्चरणां धोजे रतिः स्यादनपायिनी।